इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य एकदिवसीय यात्रार्थं मुम्बई नगरं प्रति यास्यति। स्वकीय यात्रावधौ प्रधानमन्त्री मुम्बय्यां भारतीय रिजर्व बैंक इत्येतस्य 90 वर्षाणां पूर्त्यवसरे एकस्मिन् कार्यक्रमे सम्मिलितो भविष्यति। एतस्मिन् कार्यक्रमे केन्द्रीय वित्तमन्त्री निर्मला सीतारमण, वित्त राज्यमन्त्री भागवत किशनराव कराडः, पंकज चौधरी च भागं भजिष्यन्ति। अत्रावसरे आरबीआई गवर्नर इति शक्तिकांत दासः कार्यक्रमं एनं संबोधयिष्यति। अवधेयं वर्तते यत् भारतीय रिजर्व बैंक इत्यस्य स्थापना 35-19-शततमवर्षस्य अप्रैल मासस्य प्रथमे दिनांके जाता। सम्प्रति वित्तकोषेण अनेन 90 वर्षाणि सम्पूरितानि। रिजर्व बैंक इति एकस्य स्मारक कार्यक्रमस्यापि आयोजनं करोति, यस्मिन् महाराष्ट्रस्य मुख्यमंत्री एकनाथ शिंदे, उपमुख्यमंत्रिणौ देवेन्द्र फडणवीसः, अजित पवारश्च विविध बैंकानां उद्योगानां च प्रतिनिधयः सम्मिलिताः भविष्यन्ति। भाजपा दलस्य वरिष्ठ नेता प्रधानमंत्री च नरेन्द्र मोदी ह्यः उत्तरप्रदेशस्य मेरठ जनपदे भाजपा दलस्य लोकसभा निर्वाचन प्रचाराभियानस्य आरम्भं कृतवान्। जनसभां सम्बोधयन् श्रीमोदी अवदत् यत् ऐषमः लोकसभा निर्वाचनं केवलं सर्वकारस्य निर्माणार्थं न अपितु भारतं विकसितराष्ट्रं विश्वस्य तृतीयं बृहत्तमं आर्थिक महाशक्तिं च कर्तुं भवति। असौ अवदत् यत् यदा भारतं विश्वस्य 11वा बृहत्तमा अर्थव्यवस्था आसीत् तदा भारतस्य निर्धनता संवर्धमाना आसीत्। प्रधानमन्त्रिणा प्रोदीरितं यत् यदा भारतं 5वा बृहत्तमा अर्थव्यवस्था अभवत् तदा 25 कोटिभ्यः अपि अधिकाः जनाः सफलतया निर्धनरेखातः बहिः आगताः। सः अवदत् यदा भारतं तृतीयं बृहत्तमा अर्थव्यवस्था भविष्यति तदा उन्मूलनं भविष्यति, तथा च मध्यमवर्गः भारतस्य विकासाय इन्धनं प्रदास्यति। अवधेयं वर्तते यत् भाजपेति दलेन रामायण धारावाहिक प्रसिद्ध नायक अरुणगोविल अस्मात् लोकसभाक्षेत्रात् निर्वाचन समराङ्गणे अवतारित। भाजपेति दलस्य वरिष्ठ नेता गृहमन्त्री च अमित शाह द्विदिवसीय यात्रायां राजस्थान राज्ये अस्ति। राजस्थाने द्वयोः चरणयोः सम्पद्यमानस्य लोकसभा निर्वाचनस्य अन्तर्गतम् असौ जयपुरे संघटनात्मको उपवेशनं विहितवान्। श्री शाहः जयपुरे दलनेतृणाम् एकस्योपवेशनस्य अध्यक्षताम् अथ च 5 लोकसभाक्षेत्रेषु दौसा, करौली, धौलपुर, नागौर, चुरू, झुंझुनू जनपदानां निर्वाचनसज्जतायाः समीक्षां कृतवान्। श्री शाहः ह्यः सायं सीकरनगरे एका पथप्रदर्शिनी कृतवान्। गृहमन्त्री अद्य जोधपुर, पाली, जालौर, सिरोही, बाड़मेर लोकसभासनानां नेतृणाम् उपवेशने भागग्रहणाय जोधपुरनगरं प्रति गमिष्यति। आईपीएल इति क्रिकेट स्पर्धायाः प्रचल्यमाणे 13वें संस्करणे ह्यः जातायां प्रतिस्पर्धायां वाईएस राजशेखर रेड्डी क्रिकेट क्रीडांगणे विशाखापत्तनमस्य डेल्ही कैपिटल्स दलेन चेन्नई सुपर किंग्स दलं 20 धावनांकैः पराजितम्। अद्य मुम्बय्याः वानखेड़े क्रीडांगणे मुम्बई इंडियंस दलं राजस्थान रॉयल्स दलेन सह क्रीडिष्यति। प्रतिस्पर्धायाः प्रसारणं 7:30 भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः पूर्व उपप्रधानमन्त्रिणं एलके आडवाणी वर्यं देशस्य सर्वोच्च नागरिक पुरस्कारेण भारत रत्नेन सम्मानितवती इति वार्ताः।